इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। निर्वाचनायोगेन राज्यानां तथा केन्द्रशासितप्रदेशानां मुख्यनिर्वाचनाधिकारिभ्यः निर्देशाः प्रदत्ता यत् प्रत्येकं मतदानकेन्द्रं मतदानदिने सुनिश्चितन्यूनतमसुविधाभिः मतदातृसाहाय्येन च सुसज्जितं भवेदिति। बिहारराज्ये विधानसभानिर्वाचनम् अग्रिमे मासे षडेकादशदिनांकयोः भविष्यति। सप्तराज्येषु उपनिर्वाचनमपि नवेम्बर एकादशे दिनांके भविष्यति। सुनिश्चित न्यूनतम सुविधासु पेयजलं, प्रतीक्षालयः, जलसुविधायुक्तः शौचालयः, पर्याप्त प्रकाशः, पीडब्ल्यूडी इति निर्वाचकानां कृते समुचितस्य प्रवणाय रैम्प इत्येतस्य च सुविधाः सन्ति। निर्वाचनायोगेन राजनैतिकदलेभ्यः, अभ्यर्थिभ्यः, प्रचारप्रतिनिधिभ्यश्च निर्वाचने कृत्रिमरूपेण निर्मितानां सूचनानां विषयवस्तूनाञ्च उत्तरदायितापूर्णस्य उपयोगाय आदेशो दत्तः। सर्वकारेण राष्ट्रिय नूतननिवृत्तिव्यवस्था, एकीकृत निवृत्तियोजना चेत्येतयोः केन्द्रसर्वकारीय कर्मचारिणां कृते निवेशविकल्पानां विस्तारः अनुमोदितः। एतत् केन्द्रसर्वकारस्य कर्मचारिभ्यः, सर्वकारीयेतर अभिदातृभ्यश्च उपलभ्यमानानां निवेशविकल्पानां विस्तृतश्रेण्याः निरन्तर आग्रहस्य अनुरूपम् अस्ति। एते विकल्पाः सेवानिवृत्तियोजनायां नम्यतां वर्धयितुं परिकल्पिताः सन्ति। पाकिस्तानेन सह सद्यः एव सीमासंघर्षस्य कतिपयेभ्यः दिनेभ्यः अनन्तरं अफगानिस्तानदेशस्य तालिबान नेतृत्वयुतेन प्रशासनेन कुनारनद्याः उपरि जलबन्धनिर्माणस्य योजना घोषिता अस्ति। अयमेकः प्रमुखः जलमार्गः अस्ति यः पाकिस्तानदेशस्य वायव्यप्रदेशं प्रविशति। अफगानिस्तानदेशस्य कार्येण पाकिस्तानदेशं प्रति जलप्रवाहः प्रतिबन्धितः भवेदित्यपेक्षते। अफगानिस्तानदेशस्य उपसूचनासंस्कृतिमन्त्री प्रकाशनस्य मुहाजर फराही इत्येषः सामाजिकमाध्यमे उक्तवान् यत् तालिबान सर्वोच्चनेता हिबतुल्ला अहुन्दजाः इत्यनेन अयम् आदेशः दत्तः अस्तीति। अद्य देशस्य विभिन्नेषु भागेषु चतुर्दिवसीयः छठ पूजोत्सवः आरभ्यते। सूर्यदेवस्य, तस्य भगिन्याः छठी मैया इत्यस्याः पूजायै समर्पितः उत्सवोऽयं पवित्रतायै, कृतज्ञतायै, कुटुम्बस्य कल्याणाय च महत्त्वं ददाति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् उत्सवेन सम्बद्धानि गीतानि प्रेषयितुं जनाः प्रार्थिताः सन्तीति। येषाम् अग्रिमेषु कतिपयेषु दिनेषु पुनः प्रसारणं सः करिष्यति। सामाजिकमाध्यमं स्वीकृत्य प्रधानमन्त्री अवदत् यत् सम्पूर्णे विहारप्रदेशे जनाः पूर्वमेव भक्त्या सज्जतायां निमग्नाः सन्तीति। पुरुष क्रिकेट क्रीडायां भारत आस्ट्रेलिया देशयोः मध्ये त्रिस्पर्धा श्रृंखलायाः अन्तिमः तृतीयश्च ओडीआई इति क्रीडा अद्य सिडनी क्रिकेट क्रीडाङ्गणे प्रातः नववादनतः भविष्यति। भारतीय महिला द्वन्द्व क्रीडा क्रीडिका हंसिका लांबा, सारिका मलिक च सर्बिया देशे अंडर 23 वर्ल्ड रेसलिंग चैंपियनशिप इत्यस्मिन् अन्तिमं स्थानं प्राप्तवत्यौ। रांचीनगरे चतुर्थस्य दक्षिण एशियन एथलेटिक्स फेडरेशन SAAF इत्यस्य वरिष्ठ एथलेटिक्स चैंपियनशिप क्रीडायाः उद्घाटनदिने आतिथेयः भारतं त्रीणि स्वर्णपदकानि प्राप्नोत्। राष्ट्रियराजधान्यां वायुप्रदूषणस्य निवारणार्थं दिल्लीनगरे अस्य मासस्य 28 30 दिनांकयोः मध्ये कृत्रिम मेघमाध्यमेन प्रथमा कृत्रिमवृष्टिः भविष्यति। देहलीराज्यस्य मुख्यमन्त्री रेखागुप्ता इत्येषा अकथयत् यत् वायुप्रदूषणस्य प्रदूषणं विरुध्य राजधान्याः युद्धे महत्वपूर्णं प्रौद्योगिकीय लक्ष्यम् अंकयन् मेघ सीडिंग द्वारा कृत्रिमवृष्टिं प्रेरयितुं सज्जता सम्पन्ना अस्ति इति वार्ताः।